तथापि अत्र स्मारणीयः एकः अंशः स्मारणीयः न इति भवतां परीक्षादृष्टे प्रतिदिनम् एकम्
नियतिकृतनियमरहितान् पादैकमयीम् अनन्यपरतन्त्रान् नवरसर्जितान् निर्मितिम् आददति भारते कवेर्जयति
पञ्चषष्टितमं पृष्ठम् उद्घाटयति 65 प्रसङ्गवशात् आगरे आगतः इति विचारः पञ्चषष्टितमं पृष्ठवाक्यम् 65 तत्र एकः प्रसङ्गवशात् आगतः एकः विचारः व्यङ्ग्यार्थः अनवधिः भवति इत्युक्ते किमपि एकं वाक्यम् उक्तं चेत् वाच्यार्थः एषः एव इति निश्चयः भवति व्यङ्ग्यार्थः यावदपि अधिकः भवितुम् अर्हति अवधिः एतावानेव इति नास्ति कथम् अधिकः भवति इत्युक्ते कः कः शृणोति कथं शृणोति तदवलम्ब्य व्यङ्ग्यार्थः भवितु बहु भवितुमर्हति तदेव अत्र उच्यते अपि च वाच्यार्थः सर्वान् प्रतिपत्रून् प्रति प्रतिपत्रून् इति भवेत् अनन्तरम् एकरूपः एव इति नियतः अत्र इत्युक्ते एकं वाक्यं वदति चेत् तस्य वाच्यार्थः सर्वेषां दृष्ट्यापि समानः एतत् कृष्णफलकम् इति वदामि चेत् ममापि सः एव अर्थः भवत्यापि सः एव अर्थः अन्यस्यापि सः एव अर्थः किन्तु व्यङ्ग्यार्थः अस्ति सः एकः एव भवितुम् अर्हति एकैकस्य एकः विधः भवितुम् अर्हति प्रसिद्धम् एकम् उदाहरणम् न हि गतोस्तमर्कः इत्यादौ वाच्यार्थः क्वचित् अन्यथा भवति गतोस्तमर्कः इति एकं प्रतिसिद्धं वाक्यं संस्कृतसाहित्ये वाक्यम् अन्तरं कुर्वन्ति यदा कदाचित् गतोस्तमर्कः अर्कः अस्तं गतः सूर्यः अस्तं गतवान् इति एकं प्रसिद्धं तस्य वाच्यार्थः अस्ति किल स एकैकस्य एकैकः न स्फुरति सर्वेषां समानः अर्थः सूर्यः अस्तं गतः इत्युक्ते कः अर्थः सूर्यः प्रकाशमानः आसीत् सः अस्तं गतः अन्धकारः जातः इति अर्थः भवति वाच्यार्थः सूर्यः अस्तं गतः इत्यस्य सर्वेषां दृष्ट्या समानः एव व्यङ्ग्यार्थः कथं भवितुमर्हति इत्युक्ते प्रतीयमानस्तु तत्तत् प्रकरणवक्तृप्रतिपत्रादिविशेषसहायतया तत्र प्रकरणं किमस्ति वक्ता कः अस्ति प्रतिपत्ता नाम तत्र श्रोता इत्यर्थः कः अस्ति इत्यादि विशेषसाहाय्येन नानात्वं वर्तते भिन्नत्वं भिन्नत्वं कथम् इति चेत् तथा च गतोस्तमर्कः इति एकं वाक्यं प्रयुज्यते इति चिन्तयति गतोस्तमर्कः इति उच्चैः कश्चन उक्तवान् तद् श्रुत्वा सपत्नं प्रति अवस्कन्दन अवसारः अवसरः इति कस्यचित् अर्थः भवति सपत्नः नाम वैरी इत्यर्थः इदानीं वैरिणम् उद्दिश्य आक्रमणं कर्तुं योग्यः कारः महाराजः अन्येन सह युद्धं कर्तुं सन्नद्धः आसीत् कदा आक्रमणं करणीयम् इति निश्चयं समयं प्रतीक्षमाणः आसीत् तदा गतोत्तमर्कः इत्युक्ते सूर्योदयः जातः सूर्यास्तः जातः इदानीं वयं यदि गत्वा प्रहरामः के कुतः गताः झटिति अवगन्तुं न शक्नुवन्ति अतः इदानीं कः योग्यः कालः इति चेत् शत्रूणाम् उपरि आक्रमणं कर्तुं योग्यः कालः इत्यर्थं महाराजप्रत्ययः ग्रहीतुं शक्नुवन्ति सपत्नं प्रति अवस्कन्दनस्य अवसरः अवसन्दनं नाम आक्रमणम् आक्रमणस्य अवसरः इति अभिसरणम् उपक्रम्यता काचित् नायिका नायकस्य अभिसरणं कर्तुम् इच्छन्ति आसीत् कदा गच्छामि इति चिन्तयन्ति आसीत् अस्तं गतः अर्कः इति सखी वदति चेत् इदानीम् अभिसरणस्य अवसरः अभिसरणस्य उपक्रम्यताम् अभिसरणं क्रियताम् इति अर्थं कारयन्नति प्राप्तप्रायः ते प्रेयान् अन्यः अन्या काचित् नायिका अपि तस्याः पतिः सायङ्काले सूर्यास्तसमये आगमिष्यति इति वार्ता गतोत्तमर्कः इत्युक्ते सः प्रियान् आगतः इति अर्थः कर्मकरणात् निवर्तामहे क्षेत्रे कार्यं कुर्वन्तः भवन्ति बहवः तन्निमित्तं हा सूर्यास्तः जातः इति वदति चेत् अद्यतनं कार्यम् अद्य समाप्तम् इतः परं गृहं गच्छामः कर्मकरणात् निवर्तामहे इत्यर्थः भवितुमर्हति साध्योविधि उपक्रम्यताम् इति गुरुकुलैकश्चन पाठः किमस्ति, पाठः समाप्तः, बालाः सर्वे क्रीडन्तः सन्ति, इदानीं गतोत्समर्थः इत्युक्ते सूर्यास्तः जातः, सायङ्कालीन सन्ध्या करणीया, तत् क्रीडा, अतः साध्योविधिः उपक्रम्यताम् इति। तथैव दूरं मादाः गन्तुमिच्छति, तदा माता वदति अथवा पिता वदति सूर्यः सङ्गतः इत्युक्ते बहु दूरं न गच्छतु, यदि बहिः गच्छति अत्र मठमठ मध्ये एव कुत्रापि गच्छतु, इतोपि दूरम् आगच्छतु, दूरं मादाः इति। सुरभयः गृहं प्रवेश्यन्तान्, सुरभयः नाम धेनवः, इदानीं सूर्यास्तः जातः, इतः परं धेनवः बहिः मा गच्छन्तु, अन्तः प्रवेशन्तु, गोष्ठे अन्तः प्रवेशयन्तु इत्यर्थः भवितुमर्हति। अनन्तरं सन्तापः अधुना न भवति इति, एतावत्पर्यन्तं सूर्यः ज्वलन् नासीत्, महान् सन्तापः आसीत्, सूर्यः अस्तङ्गतः, इतः परं सः सन्तापः न भवति इत्यर्थः भवितुमर्हति। एवमेव विक्रेयवस्तूनि सम्प्रियन्ताम्, कश्चन वस्तूनि बहिः स्थापयित्वा विक्रयणं कुर्वन् आसीत्, सूर्यास्तः जातः, इतः परं क्रेतुं कः आगच्छति, अतः विक्रेयवस्तूनि सर्वाणि एकत्रीकृत्य अन्तः स्थापयति इत्यर्थः भवितुमर्हति। नागतः अद्यापि प्रेयान्, काचित् प्रतीक्षां कुर्वति अस्ति, आगच्छति आगच्छति आगच्छति, सूर्यः अस्तङ्गतः, इतः परं नागच्छति, इतोपि नागतः एवम् अनवधिः व्यङ्ग्यार्थः तत्र तत्र प्रतिभाति, अतः एतावानेव व्यङ्ग्यार्थः इति वक्तुं शक्यते। एतत् गतोत्तमर्थः इति वाक्यं संस्कृतः इति बहु प्रसिद्धं किञ्चित् विशिष्य तदधीत्य वक्तव्यमस्ति, मम तावान् इदानीं समयः तद्विचारं सर्वं पठित्वा अवगत्य पाठयितुम् अतः तत्र सृजामि। षष्ठः उल्लासः अतीव लघु मूलपुस्तके तु पृष्ठद्वयमेव तावान् लघु तत्र अस्ति, पृष्ठसङ्ख्या 989 लब्धवान् शब्दार्थचित्रनिरूपणम्। अधमकाव्यस्वरूपं वस्तुतः प्रथम उल्लासे काव्यविभागः कृतः अस्ति, उत्तमं काव्यं मध्यमं काव्यं प्रथमं काव्यम् इति, तत्र यद्यपि एषः विषयः उक्तः अस्ति पुनः तत्र वदन्नस्ति। अधमकाव्यस्वरूपं वदन्ति शब्दार्थचित्रं यत्पूर्वं,
शब्दार्थचित्रं यत्पूर्वं
काव्यद्वयमुदाहृतं,
काव्यद्वयमुदाहृतं
गुणप्राधान्यतस्तत्र,
गुणप्राधान्यतस्तत्र
स्थितिशब्दार्थचित्रयोः पूर्वं काव्यद्वयं मया उदाहृतमस्ति। किं तत् काव्यद्वयम् इति चेत् शब्दार्थचित्रं न तत्र अधमकाव्ये पुनः भागद्वयम् इदानीं ध्वनिः इति उत्तमं काव्यं गुणीभूतव्यङ्गम् इदस्ति, मध्यमं काव्यम् अधमकाव्यम् इदस्ति, तत् शब्दचित्रम् अर्थचित्रम् इति विधा तत् शब्दार्थचित्रम् इति काव्यद्वयं यद् उदाहरणमस्ति तत्र, तर्हि तत्र शब्दचित्रम् अनन्तरम् अर्थचित्रम् इति वदति चेत् शब्दचित्रम् इत्यत्र अर्थः न भवति वा इति पृच्छति चेत् गुणप्राधान्यतः तत्र शब्दार्थयोः शब्दार्थचित्रयोः स्थितिः इत्युक्ते एकं शब्दचित्रम् इति वदति चेत् तत्र शब्दोपि भवति अर्थोपि भवति, किन्तु शब्दः प्राधान्येन तिष्ठति चेत् शब्दचित्रम् इति गच्छति, अर्थः प्राधान्येन तिष्ठति चेत् अर्थचित्रम् इति गच्छति, द्वयमपि भवत्येव शब्दचित्रम् इत्युक्ते तद् अर्थः एव नास्ति इत्यर्थः न, अर्थचित्रम् इत्युक्ते शब्दः एव न भवति इत्यर्थः न, द्वयमपि भवति प्रधानगुणभावेन प्राधान्येन गौणत्वेन च तिष्ठति इति कारणतः तयोः नाम तथा भवति, न तु शब्दचित्रे अर्थचित्रस्य अचित्रत्वं, शब्दचित्रे अर्थचित्रं न भवत्येव इति वक्तव्यम्, अर्थचित्रे वा शब्द अर्थचित्रे शब्दचित्रं न भवति इति न वक्तव्यं भवत्येव तथा च उक्तम्। रूपकादिरलङ्कारः,
रूपकादिरलङ्कारः
सस्यान्यैः बहुधोदितः,
सस्यान्यैः बहुधोदितः
नकान्तमपि निर्भूषम्,
नकान्तमपि निर्भूषम्
विभातिवनिताननम्,
विभातिवनिताननम्
अन्यैः बहुधा रूपकादिः अलङ्कारः उदितः उदितः नाम उदितः अन्ये बहवः रूपकादय अलङ्काराः सन्ति इति उक्तवन्तः रूपकादय अलङ्काराः वस्तुतः अर्थालङ्कारः यमकः अनुप्रासः इत्यादयः
शब्दालङ्कारः
रूपकादयः अर्थालङ्काराः सन्ति बहुभिः बहुधा अन्यैः रूपकादिः अलङ्कारः उक्तः नाम अलङ्कारोऽपि अपेक्षितः एव कथम् इति चेत् नकान्तमपि निर्भूषं विवाचि वनिताननं वनितायाः आननं सुन्दरम् अस्ति चेदपि निर्भूषं न विवाचि अलङ्काररहितं भूषणरहितम् अस्ति चेत् सुन्दरमपि आननं न विवाचि एकं वा आभरणं किमपि भवेत् निर्भूषं न विवाचि अतः इदानीं शब्दचित्रम् इति यदस्ति तत्र अर्थोऽपि भवेत् अथवा अर्थचित्रं यदस्ति तत्र सम्भवति भवितुमर्हति अलङ्कारस्तु भवितुमर्हति रूपकादिमलङ्कारं
रूपकादिमलङ्कारं
वाक्यमाचक्षते परे
वाक्यमाचक्षते परे
सुपां सिंहाञ्च व्युत्पत्तिं
सुपां सिंहाञ्च व्युत्पत्तिं
वाचां वाञ्छन्त्यलङ्कृतिं
वाचां वाञ्छन्त्यलङ्कृतिम्
अलङ्कृतिम् इति भवेत् अलङ्कृतिम् केचन अपरे रूपकादिम् अलङ्कारं वाक्यम् आचक्षते अन्ये केचन रूपकादि अलङ्काराः सन्ति किल एते सर्वे अलङ्काराः वाच्याः शरीरस्य बहिर्भागे विद्यमानाः अलङ्काराः इति केचन वदन्ति सुपां सिंहाञ्च व्युत्पत्तिं वाचाम् अलङ्कृतिं वाञ्छन्ति सुबन्तानां विषये तिङन्तानां विषये ज्ञानम् अवगमनमिदस्ति तदेव वाचाम् अलङ्कारः वाक्यानाम् अलङ्कारः नाम सुबन्तानां तिङन्तानां विषये उत्पत्तिः इति केचन वदन्ति तदेतदाहुः सौशब्द्यं नार्थविस्पत्तिरीदृशि वस्तुतः एतत् सौशब्द्यम् आहुः इति वस्तुतः सौशब्द्यम् इति वदन्ति स्वगतादमातु शब्दविस्पत्तिः अस्ति किल तस्य स्वगतादमातु इति वदन्ति अनन्तरं तदेतदाहुः सौशब्द्यं न अर्थविस्पत्तिरीदृशि किन्तु अर्थस्य विस्पत्तिः एतादृशी न भवति पश्यामः शब्दाभिधेय अलङ्कारभेदात् इष्टं वेन्तुनः इष्टवाद अलङ्कारौ शब्दालङ्कार मत्तु अर्थालङ्कारमिति यद्वेगे इति हेलिचिन कण्डिरागच्छ ರೂಪಕವೇ ಮೊದಲಾದ ಅಲಂಕಾರಗಳು ಕಾವ್ಯದ ಹೊರಮೈ ಎಂದು ಕೆಲವರು ಹೇಳುತ್ತಾರೆ ಕೆಲವರಿಂದ ಹೇಳಲಾಗುತ್ತದೆ ಅವರ ಅಭಿಪ್ರಾಯದಲ್ಲಿ ನಾಮ ವಿಭಕ್ತಿಗಳ ಹಾಗೂ ಧಾತುರೂಪಗಳ ವಿಸ್ಪತ್ತಿಯ ಮಾತುಗಳು ಅಲಂಕಾರವಾಗುತ್ತದೆ ಸುಬಂತಾನಾಂ ತಿಂಗಂತಾನಾಂ ವಿಷಯ ಕಥನಮಿದಂತೆ ಸೈವ ಅಲಂಕಾರ ಹೆಚ್ಚು ಕೇಚನ ಮಂದಿರಿದೆ ತಥಾ ಬರುತ್ತಿದ್ದಾರೆ ಇದನ್ನೇ ಶಬ್ದ ವಿಸ್ಪತ್ತಿಯನ್ನೇ ಸೊಗಸಾದ ಮಾತು ಎಂದು ಕೆಲವರು ಹೇಳ್ತಾರೆ ಇದು ಕಥನ ಅರ್ಥಸ್ಯ ಸೌಂದರ್ಯಂ ತತಃ ಭಿನ್ನಮೇವ ಭವತಿ ಅತಃ ಅಲಂಕಾರಸ್ತು ಇದಾ ಭವತಿ ಅರ್ಥಾಲಂಕಾರ ಶಬ್ದಾಲಂಕಾರ ಎಂ ಉಕ್ತವಾ ಇದಾನೀಂ ಅಧಮಕಾವ್ಯಸ್ಯ ಸ್ವರೂಪಂ ವದತಿ ಶಬ್ದಚಿತ್ರ ತಸ್ಯ ಉದಾಹರಣ ಪುನಃ ದರ್ಶಯತಿ ಪ್ರಥಮಂ ಅರುಣಛಾಯಃ
ಪ್ರಥಮಂ ಅರುಣಛಾಯಃ
ಕ್ಷಣದಾಮುಖೇಂದಿ
ಕಂದಚ್ಛೇದಕ್ಷವಿಃ ಮೃಗಲಾಂಛನಃ
ಮೃಗಲಾಂಛನಃ ಉದಯತಿ ಮೃಗಲಾಂಛನಃ ಮೃಗಾಂಕ ಚಂದ್ರ ಚಂದ್ರಃ ಇದಾನೀ ಉದಯತಿ ಸಹ ಚಂದ್ರಃ ಕಥಮಸ್ತಿ ಇತಿ ಚೇತ್ ಪ್ರಥಮಂ ಅರುಣಛಾಯಃ ಉದಯ ಸಮಯೇ ಚಂದ್ರಃ ಕೀದೃಶ ಆಸೀತ್ ಅತ್ಯಂತಂ ಅರುಣವರ್ಣ ಆಸೀತ್ ಪ್ರಥಮಂ ಅರುಣಛಾಯ ತತಃ ಕನಕಪ್ರಭ ಕಿಂಚಿತ್ ಅನಂತರಂ ಕನಕವರ್ಣ ಜಾತ ಅರುಣ ನಾಮ ತೀವ್ರಕ್ತವರ್ಣ ಕನಕ ನಾಮ ಕಿಂಚಿತ್ ಪೀತವರ್ಣ ಅನಂತರಂ ಕನಕಪ್ರಭ ತದನು சுந்தரீ அஸ்தி சேத் தஸ்யாஹ கபோலதலம் கதம் பவதி இதி சேத் விரஹஹ பவதி சேத் தாதீவ கிம்னா பவதி தஸ்யாஹ முகம் சர்வமபி ஸ்வைத்ய பாண்டுரத்வம் பவதி தத்ர ஸ்வேதவர்ணத்வம் கதம் பவதி தத்வத் விரஹேண சாம்யந்தி யா தன்மீ அஸ்தி தஸ்யாஹ கபோல யதா ஸ்வேதஹ பவதி தாதிருஷ வர்ணயுக்தஹ விரஹ விரஹோ சாம்ய தன்மீ கபோல தலத்தி அனந்தர் ततः ध्वान्त ध्वंस क्षमः तदनन्तरं ध्वान्तः नाम अंधकार अंधकारस्य ध्वंसे समर्थः चन्द्रः आगच्छति चेत् अनन्तरं अंधकारः नश्यति अतः ध्वान्त ध्वंस क्षमः कदा इति चेत् क्षणदा मुखे क्षणदा नाम रात्रि रात्रेः आरम्भसमये क्षणदा मुखे चन्द्रः उदयति अनन्तरं पुनः एकं विशेषणमस्ति சரச பிசிரி கந்தச்சேரச்சரி சரச அரசசகித யா பிசிரி அஸ்தி பிசிரி நாம கமலநாதமிதி பிசிரி அஸ்தி தஸ்ய கந்தஹ இதஸ்தி தத் சேதம் குர்மஹ சேத் சேதவர்ணஹ யதா பவதி தாதிருஷ காந்தியுக்த முதலாயதனஹ அத்யந்தம் ஸ்வேத முதலாயதனஹ அத்யந்தம் வர்ணவர்ண அனந்தரம் பீதவர்ண அனந்தரம் பாண்டரவர்ண அனந்தரம் அத்யந்தம் ஸ்வேதவர்ண एवं जातः चन्द्रः अस्ति सः मुदलायतः उदयति उदयति इति वर्णनं एतद् शब्दचित्रम् अधमकाव्यं काव्यं काव्यं अनन्तरम् अस्ति अत्र वस्तुतः अनुप्रासः इति अलङ्कारः तत्र समानस्य वर्णस्य पुनः पुनः आवर्तनम् इत्यादि भवति प्रथमं मरुणच्छायः तावत् ततः कनकप्रभः सकारबहुवारमस्ति तदनं विरहो साम्यत्तन्मी कपोलतलब्धिः तकारस्य तु वृत्ति बहुवारम् आवर्तनमस्ति उदयति ततो ध्वान्तध्वंस क्षमः क्षणदामुखे सरसदिशिलीगन्धच्छेदच्छिनिः मुदलाञ्चनः बहूनां शब्दानां वर्णानां पुनः पुनः आवर्तनमित्यादिकमस्ति अतः विश्वासः अत्र यद्यपि कश्चन अर्थालङ्कारोऽपि अस्ति नास्ति इति न कोऽपि अर्थालङ्कारः अत्र अस्ति उपमा वा काचित् तत्सदृशः इत्यस्ति किन्तु शब्दसौन्दर्यम् अधिकम् अतः रसः अधिकः अल्पप्रमाणे महान् रसः अस्ति इति तदपि अतः अत्र यद्यपि शब्दोऽपि अस्ति शब्दचित्रमपि अस्ति अर्थचित्रमपि अस्ति किन्तु शब्दचित्रस्यैव आधिक्यम् इति कृत्वा शब्दचित्रम् अत्र विवरणे चित्र अस्ति मूल उदाहरणेन प्रधानवादि काणोद् अनुप्रासम्ब शब्दालङ्कारः मकारद्वया ककारगरो ककारद्वया षकारद्वया 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 षकार षकार लकारगड अनुप्रासवादिते आदरणीय अर्थचित्रम् ते दृष्टिपात्रमतिता पतिता
ते दृष्टिमात्रपतिता
इकस्य नात्र
अधिकस्य नात्र
शोभाय पक्ष्मलदृशान्
शोभाय पक्ष्मलदृशान् अलकास्थलाश्च
नीचास्तदैव सलिलासम्
नीचास्तदैव सलिलासम्
अलीकलग्नाः एकालताम् कुटिलताम्
एकालताम् कुटिलताम् इवनत्यजन्ति
ते दृष्टिपात्रपतिताः अपि कस्य शोभाय न कल्पन्ते केचन सन्ति ते किं भवन्ति इति चेत् दृष्टिमात्रपतिताः दृष्टौ पतन्ति चेत् तावत् क्षोभाय न कल्पयन्ति क्षोभं न जनयन्ति तेषां दर्शनमात्रेण मनसि क्षोभः उत्पन्नः भवति इति वदति तत्र विषयद्वयं वदति एकं तु कुटिलालकाः पक्ष्मदृशाम् अलकाः इति एकः विषयः अलकाः नाम अग्रे विद्यमानाः कुन्तलाः अलकाः पूर्णकुन्तलाः इति अमरकोशे पुरतः विद्यमानाः चिन्ताः ते पक्ष्मलदृशां सुन्दरीणां అలకాహ ఏసంతి అలకాహ దృష్టి మాత్ర పతితాహ దర్శన మాత్రేణ కస్య క్షోభం న జనయంతి. అనంతరం నీచాహ తథైవ సవిలాసం అనీక లగ్నాహ విలాసహీనం కిం అనీకతయ అనీకం నామ మిథ్యారూపేణ లగ్నాహ సంతహతే కాలతాం కుటిలతామివ నత్యజంతి యథా నీచాహ కుటిలతాం నత్యజంతి తథా ఏతే అలకాహ అపి కుటిలతాం నత్యజంతి. కుటిల నామ తాదృశా కుటిల వక్రత చేసి కుటిలతాముపి నత్యజంతి క్షోభం చ జనయంతి కశ్చిత్ మనసి కామం అనురాగం జనయంతి. తత్ర విశేషణానా అర్థద్వయం కథితమస్తి. ಇಲ್ಲಿ ಇರುವ ವಿಲಾಸಪೂರ್ವಕವಾಗಿ ಯಾವಾಗಲೂ ಲಲಾಟಕ್ಕೆ ಹತ್ತಿಕೊಂಡಿರುವ ಕುಟಿಲತೆಯಿಂದ ಕಾಮತ್ವವನ್ನು ಬಿಡದಿರುವ ಕ್ಷಾಮತ್ವ ಇದೆ ಸತ್ಯ ಕಾಲತಾಮ ನಮ ಕ್ಷಾಮತ್ವ ಶ್ಯಾಮವರ್ಣತ್ವ ಕೃಷ್ಣತ್ವವನ್ನು ಬಿಡದಿರುವ ಸುಂದರಿಯರ ಮುಂದುಗಳು ಕಣ್ಣಿಗೆ ಬಿದ್ದಾಗ ಮಾತ್ರ ಯಾರ ಕ್ಷೋಭಕ್ಕೆ ತಾನೇ ಕಾರಣವಾಗುವುದಿಲ್ಲ ಹೇಗೆ ಅಂತ ಹೇಳಿದರೆ ಮತ್ತು ಪಾಪಿಗಳಾದ ಮಿಥ್ಯಾವಚನಗಳಲ್ಲಿ ಆಸಕ್ತರಾದ ಕಪಟತ್ವದಿಂದ ಪರರ ಪೀಡೆಯನ್ನು ಬಿಡದಿರುವ ದುರ್ಜನರು ಕಣ್ಣಿಗೆ ಬಿದ್ದಾಗ ಮಾತ್ರ ಯಾರ ಧೈರ್ಯದ ನಾಶಕ್ಕೆ ತಾನೇ ಕಾರಣವಾಗುವುದಿಲ್ಲ. ದುರ್ಜನಾಯದ ನೇತ್ರ ಪಾತ್ರ ತಾನು ಬೆಚ್ಚಂತೆ ಧೈರ್ಯ ನಾಶ ಭವಿಸುತ್ತದೆ. ವಿಷಯ ದ್ವೈಮತ ಚಿತ್ರಮಸ್ತಿ ಅತ್ರ ಅರ್ಥೇ ವೈಶಿಷ್ಟ್ಯ ಮತ್ತು ಅತ್ರ ಶಬ್ದ ವೈಚಿತ್ರ್ಯ ಆಗುತ್ತೆ. ಲೇಖಾಲಂಕಾರ ಅಸ್ತಿ ಉಪಮಾಲಂಕಾರ ಅಸ್ತಿ ಕ್ಲೇಶಾಲಂಕಾರ ಅಸ್ತಿ ಇಲ್ಲ ಅರ್ಥದ್ವಯಂ ಅನಾನಾರ್ಥ ಸಂಶಯ ಕ್ಲೇಶ ಅಂತ ಅರ್ಥದ್ವಯಮಸ್ತಿ ಇದೆ ಕಾರಣ ಕ್ಲೇಶಾಲಂಕಾರ ಅಸ್ತಿ ಉಪಮಾಲಂಕಾರ ಅಸ್ತಿ ಕ್ಲೇಶ ಮತ್ತು ಉಪಮಾಲಂಕಾರಗಳಿಂದ ಪೋಷಿತವಾದ ಸಮುಚ್ಚಯ ಎಂಬ ಅರ್ಥಾಲಂಕಾರ. ಸಮುಚ್ಚಯ ಅಲಂಕಾರ ನಮ ದೇವೋ ಅಲಂಕಾರ ಯೋಗ ಎತ್ರ ಮೇಲೆ ನಮ್ಮದು ಸಮುಚ್ಚಯ ಅಲಂಕಾರ ತತ್ರ ಇವ ವೈಶಿಷ್ಟ್ಯ ಅಧಿಕಮಸ್ತಿ ಅತ ಅರ್ಥಚಿತ್ರ ವಸ್ತುತಃ ತತ್ರ ದ್ವಯೋಹ ನಿಮಿತ್ತಮಿ ಉದಾಹರಣ ದರ್ಶಿತಮಸ್ತಿ. ಶಬ್ದಚಿತ್ರಸ್ಯ ಉದಾಹರಣ ಅರ್ಥಚಿತ್ರಸ್ಯ ಉದಾಹರಣ ಪ್ರಥಮೋಲ್ಲಾಸೆ ದತ್ತಮಸ್ತಿ ಪುನಃ ಕಿಮರ್ಥಂ
ದತ್ತವಾಗಿ
ಶಬ್ದಾರ್ಥ ಚಿತ್ರಯೋ ಅಪಿ ವ್ಯಂಗ್ಯತ್ವಂ ಇದೆ ಅಂತ ಹೇಳಿದರು. ಯದ್ಯಪಿ ಸರ್ವತ್ರ ಕಾವ್ಯೆ ಅಂತತೋ ವಿಭಾವಾದಿರೂಪತೆಯ ರಸಪರ್ಯವಸಾನಂ ಅಂತತೋ ಗತ್ವಾ ಕಾವ್ಯೆ ವಿಭಾವಾದಿರೂಪೇಣ ರಸೇ ಪರ್ಯವಧಾನ ತಥಾಪಿ ಪುಟಸ್ಯ ರಸಸ್ಯ ಅನುಪಲಂಬ ಶ್ಲೋಕದಲ್ಲಿ ಶ್ಲೋಕ ಇದು ಪುಟತೆಯ ಕೋಪಿ ಅಲಂಕಾರ ನೋಪಲಭ್ಯ ಅತ ಅನುಪಲಂಬ ಔದ್ಯಂಜಮೇತದ ಕಾವ್ಯತೆ ಮುಕ್ತಂ ಅತ ಏತದ ಕಾವ್ಯದ್ವಯಂ ದರ್ಶಿತಮಸ್ತಿ ಏತದ ಔದ್ಯಂ ಅತ್ರ ವ್ಯಂಗ್ಯಂ ಪುಟತೆಯ ಏತದೇವ ವಿದ್ಯತೆ ವಸ್ತು ನ ಅತ್ರ ಚ ಶಬ್ದಾರ್ಥಾಲಂಕಾರ ಭೇದಾ ಬಹವೋ ಭೇದಾಃ ತೇ ಚ ಅಲಂಕಾರ ನಿರ್ಣಯ ಉಲ್ಲೇಖ್ಯಂತೆ. ಅಂದರೆ ಅಲಂಕಾರ ನಿರ್ಣಯ ಪ್ರಕರಣಮಸ್ತಿ ಉತ್ತಮ ಅಲಂಕಾರ ಪ್ರಕರಣ ನಾಸ್ತಿ ಎಷ್ಟು ಉದಾಹರಣೆ ಸಮಾಪ್ತ ತತ್ರ ಅತ್ರ ಏಕಂ ಅಹಂ ದೃಷ್ಟವಾನ್ ಅಂತೆ ನಮ ಅಷ್ಟನವತಿತಮ ಪೃಷ್ಠಾತ್ ಕೇವಲ ಕಾರಿಕಾ ಸಂಗ್ರಹ ದತ್ತವಾನ ಭಗವಂತ ಸರಳ ಕಿನಿಸುತ್ತೆ. ಒಂದರಿಂದ ಅಂತೆ ಏತಾವತ್ ಪರ್ಯಂತ ವಿದ್ಯುತ್ ಆಗತಮಸ್ತಿ ಸರ್ವಾ ಅಪಿ ಕಾರಿಕಾ ಪುನಃ ದತ್ತಾಸ್ತಿ. ಪೇಜ್ ನಂಬರ್ 98 107 ಏತದ ದಿನೇ ಏಕವಾರ ಮುಕ್ತೈಃ ಪಠಂತಿ ವೇದಾಃ ಕಾರಿಕಾ ಸದಾ ಆಹತಿ ಕಿ ಮುಕ್ತಮಸ್ತಿ ಕೇವಲ ಕಾರಿಕಾ ಆಹತ ದತ್ತಾಸ್ತಿ ಕೃತನಿಯಮರಹಿತ ಪ್ರಥಮ ಬದ್ಧಿ ಕಾವ್ಯ ಎಷ್ಟೇ ಅರ್ಥಕತೆ ಇತ್ಯಸ್ತಿ ಕವಿತಾ ಸಾಮಗ್ರಿ ಅಸ್ತಿ ಕಾವ್ಯಸ್ವರೂಪ ಅಸ್ತಿ ಉತ್ತಮ ಕಾವ್ಯ ಮಧ್ಯಮ ಕಾವ್ಯ ಅಗಮ ಕಾವ್ಯ ಪದ ಉಲ್ಲಾಸ ಸಮಾಪ್ತ ಕಾವ್ಯ ದ್ವಿತೀಯ ಉಲ್ಲಾಸಸ್ಯ ಶಬ್ದಾರ್ಥಯೋ ಸ್ವರೂಪ ವಿಭಾಗ ಶಬ್ದಾರ್ಥಯೋ ವ್ಯಂಜಕತ್ವ ಇವು ಸರ್ವೇಷಾಂ ಉಲ್ಲಾಸಾನ ಇವಂ ಕಾರಿಕಾ ಏಕತ್ರ ಸಂಗ್ರಹಕ್ಕೆ ದತ್ತಾಸ್ತಿ. ಏತದ ಭವಂತಃ ದಿನೇ ಏಕವಾರಂ ಪಠಂತಿ ಮಾತಾಡ್ದಂತರೆ ಕಂಠಸ್ಥಂ ಭವತಿ ಕದಾಚಿತ್ ಪರೀಕ್ಷಾ ಕಾಚಿತ್ ಕಾರಿಕಾ ದತ್ತಾ ಚೇತ್ ಕುತ್ರ ಅಸ್ತಿ ಅಟ್ಲೀಸ್ಟ್ ಸ್ಮರ್ಯತೆ चार श्लोक सर्वे भी कंठस्थीकर्तुं शक्यन्ते वयं नहीं परं तात्पर्यम् अवगच्छन्ति पर्याप्तं कुत्र अस्ति इत्यादि पाठने यद् भवतां सौन्दर्यं प्रियम् अभवत् तादृशं ह्यः चेत् उक्तवान् मित्रान् श्लोकान् उक्तवान् तादृशम् इदमेव इति मम पाठसमये यद् भवतां प्रियम् अभवत्
सः चितवान् सर्वान् उदाहरणान् स्मृत्वा लेखनीयमिति नास्ति लेखितुमपि न
अत्र अस्मिन् पुस्तके तदेव एतद् अर्थशक्तिमूलमगूढम् एतत् सम्यक् अत्रापि परिपाठबन्धनविधिः ऐन्यते वैनवरैः तद् इदम् अर्थं स्मर्तुमपि समीचीनमस्ति रामः सीताय दर्शयन्नस्ति एवमेवम् अभवत् इत्यत्र पुनः रामः वदन्नस्ति इति केनापि अत्र रावणः मारितः इति वदन्नस्ति रामः स्वयं केनापि इति कथने औचित्यं नास्ति इति वदति किल एतत् स्मर्तुमर्हति अयं स रचनोत्कर्षि एतत् प्रसिद्धं पद्यते अन्यस्मिन् प्रसङ्गे ध्वन्यालोके अपि अस्ति एतत् पेज् नम्बर् एय्ट् पेज् नम्बर् एय्ट् अयं रषमोत्पत्ति तद् शृङ्गाररसः अनन्तरं तरुणरसः द्वयो अङ्गाङ्गीभावः अस्ति इति
अनन्तरं
जनस्थाने भ्रान्तम् एतत् पद्यबहु इति अस्ति पेज् नम्बर् हन्नन्दु जनस्थाने भ्रान्तं कनकप्रदृष्णां प्रदिया अनन्तरं एतद्वयं प्रसिद्धं भ्रमिम् अरतिम् अलकतां पचन् पेज् नम्बर् इप्पत् विंशतितमं प्रश्नम् प्रथममपि द्वितीयं बहु समीचीनं गच्छामि निश्चितदर्शनेन भवता किं प्रसिद्धे अच्युत इति शब्दप्रयोगः अस्ति इति कारणतः कृष्णस्य आलिङ्गनमेव अपेक्षितमिति तस्य आशयः अस्ति एतद् बहु समीचीनं पश्यति द्वां प्रसिद्धम् अदृष्टे दर्शनोत्कण्ठेण न दृष्टेण भवता विद्यते सुखम् एतत् पद्यमपि बहु समीचीनम् ನೋಡಿದ್ರೆ ಸುಖ ಇಲ್ಲ ನೋಡಿದ್ರೆ ಸುಖ ಇಲ್ಲ ಸಂದಿಗ್ಧ ಪ್ರಾಧಾನ್ಯ ಪ್ರಸಿದ್ಧ ಪದ್ಯಂ ಕುಮಾರ ಸಂಭವತಿ ಪದ್ಯ ಹರಸ್ತು ಕಿಂಚಿತ್ ಪರಿಯತ್ತೇಯ ಸಂಬೋಧಯ ಆರಂಭರಿ ವಾಂ ದುರಾಶಿ ಕಿಮೋಕ್ತಿ ವಸ್ತುತಃ ಅತ್ರ ಸಂಶಯ ಭವತಿ ಸಂದಿಗ್ಧ ಪ್ರಾಧಾನ್ಯ ಧೈರ್ಯಸ್ಥಿತಿ ಜಾತಾ ಇತ್ಯತ್ರ ಪ್ರಾಧಾನ್ಯ ಅತಃ ಚುಂಬನಂ ಕರ್ತುಮ ಇಚ್ಛತಿ ಪ್ರಾಧಾನ್ಯ ಕಂಠವಿಶೇಷಃ ವಾಕ್ಯ ಅಸುಂದರವ್ಯಂಗ್ಯಂ ಕೃತ್ವ ಕಮರ್ಥಮಿತ್ಯುಕ್ತೆ ಎತ್ತದ ಅಧಮಕಾವ್ಯಸ್ಯ ಉದಾಹರಣತ್ವೇನ ದೀಯತೆ ನ ಮಧ್ಯಮಕಾವ್ಯಸ್ಯ ಕಾವ್ಯಭೇದ ಅಸ್ತಿ ಕಿಲ ತತ್ರ ಮಧ್ಯಮಂ ಕಾವ್ಯಂ ಇತ್ಯತೆ ಎತ್ತದ ಉದಾಹರಣಂ ತದ ಉಚ್ಯತೆ ಅತಃ ಅಸುಂದರವ್ಯಂಗ್ಯಂ ವಾಣೀನ ಪುಂಜ ಉದ್ದೀನ ಶಕುನಿ ಕೋಲಾಹಲಂ ಸುನ್ನತ್ಯಾಃ ಗೃಹಕರ್ಮಯಾಪ್ರದಾಯಃ ಗದ್ವಾ ಸೀನಂತಿ ಅಂಗಾನಿ ತಥಾಪಿ ಪದ್ಯಂ ತತ್ರ ನ ಪದ್ಯಮೇವ ನಾಸ್ತಿ ತತ್ರ ಪಿತ್ರಾ ವಿಚಾರಾಃ ಸಂತಿ ಅಹಂ ವಕ್ತುಂ ನ ಶಕ್ತಃ ಭವತಿ ದೋಷಃ ಇತಿ 69 ಮಧ್ಯೆ ಅಸ್ತಿ ಏತದ ತತ್ರಾಪಿ ಧನ್ಯಾಲೋಕೆ ಇತಿ ಪದ್ಯ ಕಸ್ಯವಾನ ಭವತಿ ದೋಷಃ ಸ್ವಾಪ್ರಿಯಾಯ 75 मध्ये शिशुः वस्त्रं निमज्जति अत्र अहम् इत्यस्य एतदेव धार्मिकविश्रब्दः एटि मध्ये अस्ति तदपि तत्रैव ध्वन्यमस्ति एतावन्ति पद्यानि पर्याप्तानि चैतपरं किमस्ति ध्वन्यालोकः समाप्तः काव्यप्रकारे तत्र किमपि नास्ति इत्युक्ते अलङ्कारशास्त्रे अन्ये ये अलङ्कारिकाः सन्ति तेषां पुस्तकानि कानि तस्य परिचयः इत्यादिकम् अतः तत्र पाठनीयम् इति किमपि पश्यन्ति महोदय अहम् एकवारं दृष्टवान् किम् अन्यान्य एकैकस्यापि विषये अस्ति तेषां ग्रन्थाः के के इत्यादि परिचयार्थमस्ति
पाठनीयन्तु कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः.
पुनः भवन्तः वदेयुः अस्ति चेत्.